राम गीता जी का पाठ पहला अध्याय श्लोक 18 से 27 तक। राम
वसुदेव सुतं पंचजानुरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम् द्रुपदो द्रौपदेयास्तु सर्वसविधिविपते सौहद्रश्च महाबाहु शङ्खान्दधो विदकृत प्रभूषो धर्तुराष्ट्राणां हृदयानि जदारय नभश्च पृथिवीं चैव तुमुलोऽव्यनुनादयन् अथ व्यवस्थितान् दृष्ट्वा धातुराष्ट्रान् कविध्वज प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्यपाण्डव ऋषिकेशं तदावाक्य मृदुमाहमहीपते अनुवच सेनयोरुभयोर्मध्ये रथं स्थापयमेत्युत यावदेतान्निरीक्षेऽहम् योद्धु कामानवस्थितान् कैर्मया सह योद्धव्य मास्मेन्द्रणसमुद्यमे योत्स्यमानानवेक्षेयम् यरेते स्वसमागता धातुराष्ट्रस्य दुर्बुद्धे युद्धे प्रियचिकीर्षव सन्निवाच एवमुक्तो ऋषिकेशो पुडाकेशेन भारत सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् भीष्माद्रोणप्रमुखत सर्वेषां च महीक्षिताम् उवाच पार्थ पश्यैतान् समवेतान् कुरु नीति तत्सापश्यस्थितान् पार्थ नथ पितामहान् आचार्यान् मातुलान् भ्रातीन् पुत्रान् पौत्रान् सखीन् सदा श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि तान् समीक्ष्य स कौन्थेय सर्वान् बन्धूनवस्थितान् श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि तान् समीक्ष्य स कौन्थेय सर्वान् बन्धूनवस्थितान्
वसुदेवसुतं देवम् पंचजानुरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम् कृष्णं वन्दे जगद्गुरुम्
हरे शरणम् हरे शरणम् हरे शरणम् हरे शरणम् हरि शरणम् हरि शरणम् हरि शरणम 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 हरि शरणम।